इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य नवदिल्ल्यां द्वयशीतिः अध्यापकेभ्यः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य राष्ट्रिय शिक्षक पुरस्कारं प्रदास्यति। भारत सिंगापुर देशयोः मध्ये स्वास्थ्य चिकित्सा शिक्षा कौशल विकास डिजिटल प्रौद्योगिकी भारत सिंगापुर सेमीकंडक्टर इकोसिस्टम सहकार्य इत्यादिषु क्षेत्रेषु सहकारार्थं चतुर्णां सहमति पत्राणां आदान प्रदानम् अभवत्। हरियाणायाम् एकचरणीय विधानसभा निर्वाचनस्य जम्मू कश्मीरे तृतीय चरणस्य निर्वाचनस्य च अद्य अधिसूचना निर्गमनेन सह नामांकन पंजीकरणम् अपि समारब्धम्। भारतीय रिजर्व बैंक इत्यस्य प्रमुखः शशिकांत दासः दृढ़ीकृतवान् यत् भारतस्य आर्थिक वृद्धि नैरन्तर्येण अग्रे वर्धति। अपि च पैरालिम्पिक क्रीडायां स्वर्णपदक विजेता लक्ष्यभेदकः हरविन्दर सिंह पूजा जात्यानश्च अद्य मिश्रित दलवर्गे ऑस्ट्रेलिया देशस्य अमांडा जेनिंग्स टेमोन केन्टन स्मिथ इत्येतौ पराजित्य प्रागुपान्त्य चक्रीय क्रीडायां प्रवेशं कृतवन्तौ। अथ वार्ताः विस्तरेण। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्य नवदिल्ल्यां द्वयशीतिः अध्यापकेभ्यः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य राष्ट्रिय शिक्षक पुरस्कारं प्रदास्यति। ध्यातव्यमस्ति यत् डॉ सर्वपल्ली राधाकृष्णनवर्यस्य जयन्त्यवसरे प्रतिवर्ष सितम्बरमासस्य पंचमे दिनांके राष्ट्रिय शिक्षक दिवसः परिपाल्यते। केन्द्रीय शिक्षा मन्त्रालयेन निगदितं यत् राष्ट्रिय शिक्षक पुरस्कारस्य उद्देश्यं देशस्य केषांचित् शिक्षकाणाम् अद्वितीय योगदानस्य उत्सवाचरणम् अथ च तेभ्यः शिक्षकेभ्यः सम्मानप्रदानमस्ति यैः न केवलं विद्यालयीय शिक्षायाः गुणवत्तायां परिमार्जनं कृतम् अपितु बालानां जीवनम् अपि सुदृढीकृतम्। विद्यालय शिक्षा साक्षरता विभागेन अस्य वर्षस्य राष्ट्रिय शिक्षक पुरस्काराय 50 शिक्षकाः चिताः। एते शिक्षकाः 28 राज्येभ्यः 3 केन्द्रशासित प्रदेशेभ्यः 6 संस्थानेभ्यश्च समागताः सन्ति। भारत सिंगापुर देशयोः मध्ये स्वास्थ्य चिकित्सा शिक्षा कौशल विकास डिजिटल प्रौद्योगिकी भारत सिंगापुर सेमीकंडक्टर इकोसिस्टम सहकार्य इत्यादिषु क्षेत्रेषु सहकारार्थं मन्त्रिस्तरीयाणां चतुर्णां सहमति पत्राणां आदान प्रदानम् अभवत्। उभावपि देशौ स्वसम्बन्धान् समग्र सामरिक सहभागित्वं प्रति वर्धयितुं सहमतौ अभवताम् येन भारतस्य ऑक्ट ईस्ट इति नीतिः प्रमुखतया प्रवर्धिता भविष्यति। अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना तस्य सिंगापुर देशस्य समकक्षीयेन लॉरेंस वांग इत्यनेन सह प्रतिनिधिस्तरीय वार्तायाः अनन्तरं अयं निर्णयः कृतः। सिंगापुरनगरे वार्तालापकाले उभौ नेतारौ द्विपाक्षिक सम्बन्धानां प्रगतिं समीक्षितवन्तौ। आर्थिक सम्बन्धेष् प्रबलां प्रगतिम् अवलोक्य उभयपक्षौ देशयोः मध्ये व्यापारस्य निवेशस्य च प्रवाहस्य विस्ताराय आह्वानम् अकुरुताम्। भारतीय अर्थव्यवस्थायां प्रायः 60-80 कोटि यूएस डॉलर निवेशयुक्तः सिंगापुर देशः भारतस्य प्रमुखः आर्थिक सहभागी अस्ति इति प्रधानमन्त्रिणा मोदीवर्येण अधोलिखितम्। सः इति अपि अकथयत् भारतस्य द्रुतस्थिरा च वृद्धि सिंगापुर देशस्य संस्थानानां कृते निवेशस्य अपारान् अवसरान् उद्घाटयति। ताभ्यां रक्षायाः सुरक्षायाः च क्षेत्रे विद्यमान सहयोगस्य समुद्रीय क्षेत्रस्य अवबोधस्य शिक्षायाः नूतन प्रौद्योगिकी क्षेत्रस्य विज्ञान प्रौद्योगिकी क्षेत्रस्य ज्ञान सहभागित्वस्य च समीक्षा कृता। हरियाणायाम् एकचरणीय विधानसभा निर्वाचनस्य जम्मू कश्मीरे तृतीय चरणस्य निर्वाचनस्य च अद्य अधिसूचना निर्गमनेन सह नामांकन पंजीकरणम् अपि समारब्धम्। नामांकन पूरणस्य अन्तिमा तिथिः अस्य मासस्य 12 दिनांकः अस्ति। अग्रिमे दिने नामांकन पत्राणाम् अनुसन्धेय कार्यं भविष्यति। हरियाणायां नामांकन प्रत्यावर्तनस्य अन्तिमा तिथि सितम्बर मासस्य षोडश दिनांको विद्यत नवति सदस्यानां हरियाणा विधानसभाया मतदानं अक्टूबर मासस्य पंचमे दिनांके भविष्यति। जम्मूकश्मीरे नामांकन प्रत्यावर्तनस्य अन्तिमा तिथि अस्य मासस्य सप्तदश दिनांको वर्तते। अस्मिन् चरणे अक्टूबर मासस्य प्रथमे दिने चत्वारिंशत् निर्वाचन क्षेत्रेषु निर्वाचनं भविष्यति। इदानीं केन्द्रशासित प्रदेशे द्वितीय चरणस्य विधानसभा निर्वाचनाय नामांकनं पंजीकरणं अद्य सायं अवसीयते। अस्मिन् चरणे षड्विंशति विधानसभा क्षेत्रेभ्य सितम्बर मासस्य पंचविंशति दिनांके निर्वाचनं भविष्यति। हरियाणाया जम्मूकश्मीरस्य च त्रयाणाम् अपि चरणानाम् एकचरणीय विधानसभा निर्वाचनस्य च मतगणना अग्रिम मासस्य अष्टमे दिनांके भविष्यति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय रिजर्व बैंक इत्यस्य प्रमुखः शशिकान्तदासः सुदृढीकृतवान् यत् भारतस्य आर्थिकवृद्धि नैरन्तर्येण अग्रे वर्धति। सः अवदत् यत् केन्द्रीय बैंक इत्यस्य आगामि वित्तवर्षाय 10.7% जीडीपी इत्यस्य वृद्धेः समाकलनं यथार्थमस्ति। सर्वकारस्य प्रमुख योजना स्वच्छता भारत अभियानम् इत्येषा देशे शिशु मृत्यु संख्यां न्यूनीकर्तुं साहाय्यं कृतवती। भारते योजनैषा परिवर्तनशीलां भूमिकां निर्वहत्। स्वच्छ भारत मिशन एण्ड इन्फेंट मोर्टालिटी इन इंडिया इत्यस्य अन्तर्गतं शौचालय निर्माणम् इति शीघ्रकीये शोध अध्ययने एतत् प्रकटितम्। अस्मिन् अध्ययने चतुर्दशोत्तर द्विसहस्रतम वर्षतः विंशत्युत्तर द्विसहस्र वर्षं यावत् कालः समाविष्टः, यस्मिन् सर्वकारः 10 कोट्यधिकान् गृहशौचालयान् निर्मात्। तथा च उक्तवान् यत् 3.2% वर्षे देशस्य अधिकांशमण्डलेषु शिशु मृत्युदरः प्रति सहस्र जीवन्त जन्मेषु षष्ठितः अधिकः आसीत् इति। परन्तु विंशत्युत्तर द्विसहस्रतमे वर्षे अधिकांशेषु मण्डलेषु एतत् 30%तः न्यूनतम आसीत्। स्वस्य सामाजिक माध्यम मंचे एतत् अध्ययनं प्रसारयन् प्रधानमंत्री नरेन्द्र मोदी अवदत् यत् शिशु मरणस्य न्यूनीकरणे समुचित शौचालय निर्माणं महत्वपूर्णां भूमिकां निर्वहति। अद्य आन्ध्रप्रदेशस्य जलाप्लवितेषु क्षेत्रेषु केन्द्रीयान्तः मन्त्रालयीय दलं यात्रायाम् अस्ति। केन्द्रीय गृहमन्त्रालयस्य आपत्प्रबन्धनस्य सचिवस्य संजीव कुमार जिन्दलस्य नेतृत्वे दलमिदं राज्ये सर्वत्र प्रचण्ड वृष्ट्या जलप्रलयनेन च व्यापक क्षतेः समाकलनं करिष्यति। आन्ध्रप्रदेशस्य तडेपल्ली नगरे आपत्प्रबन्धन प्राधिकरणस्य राज्याधिकारिभिः सह स्थिति विषये अन्वेषणं कर्तुं पूर्वं दलेन मुख्यालये समीक्षा एका सभा आयोजिता। शिक्षक दिवसस्य अवसरे प्रधानमन्त्रिणा नरेन्द्र मोदिना शुभाशयाः प्रेषितानि। सामाजिक माध्यम लेखने श्रीमोदी अवदत् यत् एषः युव मस्तिष्कं निर्मातृभ्यः सर्वेभ्यः शिक्षकानां प्रति कृतज्ञतां प्रकटयितुम् अवसरः अस्ति इति। पैरालिम्पिक क्रीडायां स्वर्ण पदक विजेता लक्ष्यभेदकः हरविन्दर सिंहः पूजा जात्यानश्च अद्य मिश्रित दलवर्गे ऑस्ट्रेलिया देशस्य अमांडा जेनिंग्स टेमोन केंटन स्मिथ इत्येतौ पराजित्य प्रागुपान्त्य चक्रीय क्रीडायां प्रवेशं कृतवन्तौ इति वार्ताः।